सभर्तृकाभिर्नारीभिः सेव्यः स्वपतिरीशवत् अन्धो रोगी दरिद्रो वा षण्ढो वाच्यं न दुर्वचः